श्रीमद्भागवत महापुराणम् प्रथमस्कन्धः अथाष्टमोऽध्यायः सूत उवाच अथ ते संपरीतानां स्वानामुदकमिच्छतां दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुस्त्रियः तेनि नीयोदकं सर्वे विलप्य च भृशं पुनः आप्लुता हरिपादाब्ज रजः पूतसरिज्जले तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजं गान्धारीं पुत्रशोकार्तां पृथां कृष्णाय च माधवः सान्त्वयामास मुनिभिर्हतबन्धुश्चार्पितान् भूतेषु कालस्य गतिं दर्शयन्न प्रतिक्रियाम् साधयित्वा जातशत्रो स्वं राज्यं कितवैर्हृतं घातयित्वा सतो राज्ञः कच स्पर्शक्षतायुषः याजयित्वाश्वमेधैस्तन् त्रिभिरुत्तमकल्पकैः तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः उपलिभिर्भिधावन्ति मुत्तरां भयविवलाम् उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् अभिद्रवति मामीश शरस्तप्ताय सो विभो कामं दहतु मानाथ मामे गर्भो निपात्यताम् सूत उवाच उपधार्य वचस्तस्या भगवान् भक्तवत्सलः अपाण्डवमिदं कर्तुं द्रौणीरस्त्रमबुध्यत तर्ह्येनावाथ मुनिश्रेष्ठ पाण्डवाः पैच सायकान् आत्मनोभिमुखान् दीप्तानालक्ष्यास्त्राण्युपाददुः व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनां सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद् विभुः अन्तस्थः सर्वभूतानामात्मा योगेश्वरो हरिः स्वमायया वृणोद्गर्भं वैराट्याक् कुरुतन्तवे यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघै चाप्रतिक्रियं वैष्णवन्तेजासाद्य समशां यद्भृगुद्वः मामौस्थायेतदाश्चर्यम् सर्वाश्चर्यमयेच्युते य इदं मायया देव्या सृजत्यवतिमन्त्यज ब्रह्मतेजो विनिर्मुक्तैरात्मजै सह कृष्णया प्रयाणाभिमुखं कृष्णमिदमाह पृथा सति कुन्त्युवाच नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितं मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा तथा परमहंसानां मुनीनामलात्मनां भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्ग्रये यथा ऋषिकेशखलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता विमोचिता है च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् विषान्महाग्निः पुरुषाददर्शना दसत्सभाय वनवासकृच्छ्रतः मृधे नेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेभिरक्षिताः विपदस्सन्तु नः शश्वत्तत्र तत्र जगद्गुरु भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् जन्मैश्वर्यश्रुतश्रीभिरीधमानमदः पुमान् नैवार्हत्यभिधातुं वै त्वामकेचन गोचरम् నమో కించన విత్తాయ నివృత్త గుణవృత్తయే ఆత్మా రామాయ శాంతాయ కైవల్య పతయే నమః. మన్యే త్వాం కాలమీశాన మనాది నిధనం విభుం సమైచరంతం సర్వత్ర భూతానాం యన్మిథః కలిః. న వేద కశ్చిద్ భగవాంశ్చికీర్షితం తవేహ మానస్య నృణాం విడంబనం. న యస్య కశ్చిద్ దయితోస్తి కర్హి చిద్ ద్వేష్యశ్చ యస్మిన్ విషమామతిర్నృణాం. జన్మ కర్మ చ విశ్వాత్మన్నజస్యాకర్తురాత్మనః తిర్యంగృషుయాదస్సు తదత్యంత విడంబనం. గోప్యాదే త్వయి కృతాగసిదామ తావత్ యాతే దశాశ్రుకలిలాయ జనసంభ్రమాక్షం. వక్త్రం నిమీయ భయభావనయా స్థితస్య సామాం విమోహయతి భీరపి యద్ బిభేతి. కేచిదాహురజై జాతం పుణ్యశ్లోకస్య కీర్తయే యదో ప్రియస్యాన్వవాయే మలయస్యేవ చందనం. అపరేవసుదేవస్య దేవక్యాం యాచితోభ్యగాత్ అజస్త్వమస్య క్షేమాయ వధాయ చ సురద్విషాం. భారావతారణాయాన్యే సీదంత్యా భూరి భారీణ జాతో యాత్మ భువార్థితః. భవేస్మిన్ క్లిష్యమానానామ విద్యా కామ కర్మభిః శ్రవణ స్మరణార్హాణి కరిష్యన్ కేచన. శృణ్వంతి గాయంతి గృణంతి భీక్ష్ణశస్ స్మరంతి నందంతి తవేహి తై జనాః. తైవ పశ్యంత్య చిరేణ తావకం భవ ప్రవాహో పరమం పదాంబుజం. అప్యద్య నస్త్వం స్వకృతే హిత ప్రభో జిహాససి స్విత్ సురుదోనుజీవినః. యేషాన్న చాన్యద్ భవతః పదాంబుజాత్ పరాయణం రాజసుయోజితాంహసాం. కేవయన్నామరూపాభ్యాం యదుభిః సహ పాండవాః భవతో దర్శనం యర్హి ఋషీకాణామివేషితుః. నేయం శోభిష్యతే తత్ర యథేదానీం గదాధర. త్వత్పదైరంకితా భాతి స్వలక్షణ విలక్షితైః. इमे जनपदाश्रुद्धा सुपक्वौषधिवीरुधः वनाद्रिनद्युदन्वन्तो ये धन्ते तव वीक्षितैः अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे स्नेहपाशमिवैच्छिन्धि दृढं पाण्डुषु वृष्णिषु त्वयि मेऽनन्यविषया मतिर्मधुपते सकृत् रतिमुद्वहता दद्धा गङ्गे वौघमुदन्वति श्रीकृष्ण कृष्ण सख वृषभावनिधृक् राजन्यवंशदहनानपवर्गवीर्य गोविन्द गोद्विज सुरार्ति हरावतार योगेश्वराखिल गुरो भगवन्नमस्ते सूत उवाच पृथयेत्थं कलपदैस्परिणूताखिलोदयः मन्दैजहास वैकुण्ठो मोहयन्निव मायया तांबाढमित्युपामन्त्र्य प्रविश्य गजसा वयम् स्त्रियश्च स्वपुरं यास्यन् प्रीम्णा राज्ञा निवारितः व्यासाद्यैरीश्वरेहाज्ञैक् कृष्णेनाद्भुतकर्मणा प्रबोधितोऽपीतिहासैर्ना बुध्यत शुचार्पितः आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् प्राकृतेनात्मना विप्रास्नेहमोहवशं गतः अहो मे पश्यता ज्ञानं हृदि रूढं दुरात्मनः पारक्यस्यैव देहस्य बह्व्यो मे क्षौहिणीर्हता बालद्विजसुरुन्मित्र पितृभ्रातृगुरुद्रुहः न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः नैनो राज्ञः प्रजा भर्तुर्धर्मयुद्धे वधो द्विषाम् इति मे न तु बोधाय कल्पते शासनं वच स्त्रीणां मद्धतबन्धूनां द्रोहो यो साविहोत्थितः कर्मभिर्गृहमेधियै नाहं कल्पो व्यपोहितुम् यथा पङ्केन पङ्काम्भस्सुरया वासुराकृतम् भूतहत्यान् तथैवैकान् न यज्ञैर्मार्ष्टुमर्हति इति श्रीमद्भागवते महा पुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कुन्ती स्तुतिर्युधिष्ठिरानुतापो नामाष्टमोऽध्यायः ॐ सर्वं श्री कृष्णाय